कलितरतयः काञ्ची लीलावितौ कविमण्डली वचनलहरी वासन्तीनां वसन्तविभूतयः कुशलवितये भूयासुर्मे कुरङ्गविलोचनाः कुसुमविशिका राधे रक्ष्णां कुतूहलविभ्रमाः कपालिततमस्कान्ता स्तुण्डीरमण्डलमण्डनाः सरसिजवनी सन्ताना नामरुन्दुतशेखराः नयनसरणेर्नीतीयं सह कथानुभवन्ति मे तरुणदजलदश्यामां शम्भोस्तपः फलविभ्रमाः अचरममिषुं दीनं मीनध्वजश्यमुखश्रियां सरसिजभुवो यानं म्लानं कदेन च मञ्जुनां त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरीम्।